कौसल्या सुप्रजा रामपूर्वा सन्ध्या प्रवर्तते। उत्तिष्ठ नरशाद्दूला कर्तव्यं नैव मान्यकम्। उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वजा। उत्तिष्ठ कमला कान्ता त्रैलोक्यं मङ्गलं कुरु। यादाद्रिनाथ शुभमन्दिर कल्पवल्ली। पद्मालये जननि पद्मभवादि वन्द्ये। भक्तार्ति भञ्जनि दयामयि दिव्यरूपे। श्रीनाथ गिरिवासगृहरे तव सुप्रभातम्। ज्वाला नृसिंह करुणामय दिव्यमूर्ते। योगाभिनन्दन नृसिंह दयात्वमुद्रा। लक्ष्मी नृसिंह शरणागत पारिजाता। श्रीनाथ गिरिवासगृहरे तव सुप्रभातम्। श्रीरङ्ग वेङ्कट महीधर हस्तिशयिना। श्रीयादवाद्रिमुख सत्त्वनिकेतनानि। स्थानानि ते किल वदन्ति परावरज्ञा। श्रीनाथ गिरिवासगृहरे तव सुप्रभातम्। ब्रह्मादय पुरवरामुनि पुण्यवाच्च। त्वां सेवितुं विविध मङ्गल वस्तु हस्ताः। द्वारे वसन्ति नरसिंह भवाभिपोता। श्रीनाथ गिरिवासगृहरे तव सुप्रभातम्। प्रह्लाद नारद पराशर पुण्डरीका। व्यासादि भक्तरचिता भवदीय सेवा। ग्वाचं चनन्य हृदया करुणा समुद्रा। श्रीनाथ गिरिवासगृहरे तव सुप्रभातम्। त्वद्धास्य भोगरचिका शखजिन्मुखार्या। रामानुजादि महनीय गुरुप्रधाना। सेवार्थमत्र भवदीय गृहाङ्गनस्था। श्रीनाथ गिरिवासगृहरे तव सुप्रभातम्। भक्तास्त्वदीय पदपङ्कज सत्त्वचित्ताः। कार्यं विधाय तव कन्दर मन्दिराग्रे। त्वद्दर्शनोत्सुकतयानि विडं श्रयन्ते। श्रीनाथ गिरिवासगृहरे तव सुप्रभातम्। दिव्यावतार दशकेन नरसिंह सेतु। दिव्यावतार महिमा न हि देवगम्यः। प्रह्लाद दानव शिशोक्तिर भक्तिगम्यः। श्रीनाथ गिरिवासगृहरे तव सुप्रभातम्। श्रीयादवाद्रिशिखरे त्वमहो विनेति। सिंहाचले च शुभमङ्गलशैलराजे। वेदाचलादिगिरिमूर्धसुसुस्थितोऽसि। श्रीनाथ गिरिवासगृहरे तव सुप्रभातम्। काम्याधिनो वरद कल्पककल्पकम् त्वाम्। सेवाधिनस्तु जनसेव्य पदद्वयम् त्वाम्। भक्त्या विनम्र शिरसः प्रणमन्ति सर्वे। श्रीनाथ गिरिवासगृहरे तव सुप्रभातम्। त्वन्नाम मन्त्रपठनेन युधन्ति पापाः। त्वन्नाम मन्त्रपठनेन युधन्ति वैद्याः। त्वन्नाम मन्त्रपठनेन युधन्ति रोगाः। श्रीनाथ गिरिवासगृहरे तव सुप्रभातम्। लक्ष्मी नृसिंह जगदीश सुरेश विष्णु। विष्णु जनार्दन परात्पर विश्वरूपा। विश्वप्रभातकरणाय कृतावतारा। श्रीनाथ गिरिवासगृहरे तव सुप्रभातम्। स्वन्नाम मन्त्रपठनम् किल सुप्रभातम्। अस्माकमस्तु तव शास्तु च सुप्रभातम्। अस्मत्समुद्धरणमेव विचित्रगाथा।
श्रीनाथगिरिवासगृहरे तव सुप्रभातम्।
त्वत्पूजकाः परिगृढाः परिचारकाश्च नित्यार्चनाय विधिवद्भिः तत्त्वकृत्याः।
श्रीनाथगिरिवासगृहरे तव सुप्रभातम्।
प्राभातकीम पठितिम् परिकल्पयन्तः कुमुन्दाश्च पूर्णजलकुम्भमुपाहरन्तः। श्रीवैष्णवासमुपयान्ति हरेन्द्रसिंह।
श्रीनाथगिरिवासगृहरे तव सुप्रभातम्।
सूर्योऽभ्युदेति विकसन्ति करोरुहाणि नीलोत्पलानि हि भवन्ति हि नीलितानि। प्राग्दिन्मुखेरुणगभस्ति गणोऽभ्युदेति।
श्रीनाथगिरिवासगृहरे तव सुप्रभातम्।
मन्दानिलसुरनदीकमनोदरेषु मन्दम् विगाह्य शुभसौरभमादधानः। हर्षप्रकर्षमुपयाति सेवितुम् त्वा।
श्रीनाथगिरिवासगृहरे तव सुप्रभातम्।
तारागणो वियति मज्जति सुप्रभाते। सूर्येण साकमवलोकयितुम् त्वदीयम्। श्रीसुप्रभातमवभासि च सर्वलोकम्।
श्रीनाथगिरिवासगृहरे तव सुप्रभातम्।
पक्षिस्वनाश्च परितः परिसम्पतन्ति कूजन्ति कोकिलगणाः करकण्ठरावैः। वाचा विशुद्धकलयानुवदन्ति कीरा।
श्रीनाथगिरिवासगृहरे तव सुप्रभातम्।
वल्लीषु वल्लवजना स्वगृहाङ्गणेषु धेनुर्दुहन्ति विनिभान्ति विशेषदृष्ट्या। गोपालबालैव भक्तहृदम्बुजेषु।
श्रीनाथगिरिवासगृहरे तव सुप्रभातम्।
गाढान्धकारपटलम् गगनम् जहाति मोहान्धकारैव सन्मनुजम् समस्तम्। रागो विरागैव संविशचित्रकामम्।
श्रीनाथगिरिवासगृहरे तव सुप्रभातम्।
निद्रा जहाति हि जनान् सुमुनिम् यथावत् प्रज्ञाप्युदेति हि जनेषु मुनौ यथावत्। शक्तिर्जनेषु हि यथा च मुनौ विरक्तिः।
श्रीनाथगिरिवासगृहरे तव सुप्रभातम्।
फुल्लानि पङ्कजवनानि विशुद्धसत्त्वा फुल्लानि सज्जनमनःकमलानि यद्व। भाशुभ्रसत्त्वमिव भाति विदिक्षु दिक्षु।
श्रीनाथगिरिवासगृहरे तव सुप्रभातम्।
ब्रह्मा स्वयम् सुरगणैः सह लोकपालैः धाम प्रविश्य तव मण्डप गोपुराज्यम्। पञ्चाङ्गशुद्धिमभिवर्णयति त्वदीया।
श्रीनाथगिरिवासगृहरे तव सुप्रभातम्।
विख्यात वैद्यजनवञ्चकरोगजालम् विख्यात वैद्य इति रोगनिपीडिता त्वाम्। निश्चित्य धाम तव दूरतापतन्ति।
श्रीनाथगिरिवासगृहरे तव सुप्रभातम्।
భూతగ్రహాదివనవత్తరతాపయుక్తాః బాణావతీ ముఖమహోగ్రపిశాచ విద్ధాః నాతా ప్రదక్షిణ విధావుపయాంతి నాథా
శ్రీనాథ గిరివాసగృహరే తవ సుప్రభాతం
సంతానహీనవనితాసరసి త్వదీయే నాత్వా జనాద్రవసనాత్తవ దర్శనాయ ఆయాంతి సంతతి వరప్రదేవ దేవ
శ్రీనాథ గిరివాసగృహరే తవ సుప్రభాతం
యద్దుష్టసంహరణముక్తమలోకరక్షా దీక్షాం వ్యనక్తి తవ రూపమహోరుసింహా సచ్చాత్రయాదగిరిమూర్ధని సంవిభాతి
శ్రీనాథ గిరివాసగృహరే తవ సుప్రభాతం
ప్రహ్లాద పుణ్యజని పుణ్యబలా ప్రసీతం రూపం జనస్తవ హరే నిగమాంత వేద్యం ప్రాతస్మరం స్మరతి సంస్మరణాంబురాకిం
శ్రీనాథ గిరివాసగృహరే తవ సుప్రభాతం
శ్రీసుప్రభాతమిదమచ్యుత కైకపోక్తం అప్యచ్యుతం భవతు భక్తజనైక వేద్యం లక్ష్మీ నృసింహ తవ నామ శుభప్రభావాత్
శ్రీనాథ గిరివాసగృహరే తవ సుప్రభాతం
ఇత్తం సుప్రభాతమసంత్రితాః యే పఠంతి నరా భక్త్యా తే నరా సుఖభాగినః